महानारसिंहं हरिं हरिं ह्रींकाररूपं हरिं हरिं महागण्डभेरुण्डरूपं नृसिंहं महाज्ञानजनकात्मकं वेदरूपं महादेव्यदेहं महासुन्दराङ्गं महालक्ष्मीयुक्तं भजे लोकनाथं सुन्दराय च शुभङ्कराय च नमस्मृताय च सुततमाय च शुभकराय च महारौद्ररूपं हरिं हरिं भजे लोकनाथं हरिं हरिं सर्वार्थसाधकं पद्मनाभेश्वरं देवतामनसिजं चतुर्दधिसञ्चितौ पञ्चनाधात्मकं मरिवर्गनाशकं सप्ताचलेश्वरौ अष्टदिक्शोभितौ नवरससुधाकरौ दशदिशशुभकरम् एकादशोत्मकं लोकनाथेश्वरं संस्तुतिवशङ्करं प्रणतजनकिङ्करौ दुष्टजननिग्रहौ सत्पुरुषनिग्रहौ भामि भवतारकं प्रकृतिहितकारकं भुवनभव्यभवनायकं भाग्यात्मकं रक्षकं महेशं ऋकेशं निजेशं रमेशं भूतेशं सतीशं रणेशं राजेशं महासुगुणाष्टाक्षरीमन्त्रवाच्यं महानन्दसन्दोहकारं त्रिनेत्रौ नमो शुभाय च शुभकराय च नरवराय च भद्राय च हृदयाय च इन्द्राय च निद्राय च निर्निद्राय च महानारसिंहं हरिं हरिं भजे लोकनाथं हरिं हरिं ढं 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 ढक्काविधान शुभसुन्दराडम्बरं तद्धिम्मि तकधिम्मि दिद्धिम्मि धिमि धिम्मि चतुरङ्गसोपान निजकमलमम्बरम् ओङ्कार ह्रींकार ह्रींकार ऐंकार मन्त्रपूतात्मजं लोकनाथेश्वरं रुक्पत्रपुष्पं यजुर्वेदगम्यं सामप्रणीतं अधर्मं दधानं पुराणादिलोकं प्रसिद्धं विशुद्धं लोकैकमन्त्रं सुयुक्तं सुदीप्तं नकारं नकारं शिखारं यकारं यकारं महाकार साकार सारं महालोककालं महाउग्रकण्ठं महाभक्तवन्द्यं महाट्टाट्टहासं सदा भासुतेजं महाव्यासवर्गं सुनेत्रं सुगात्रं सुगोत्रं सुचित्रं महाकाशभागं महाभानुतेजौ महाभर्तृवर्षं सुवर्णं प्रवर्णौ आहो बिलेश्वरं सिंहाचलेश्वरं वेदाद्रिमन्दिरं यादाद्रिवासिनं वैकुण्ठपुरमहाविश्वेश्वरं महापूर्णेश्वरं महाज्ञानेश्वरं ब्रह्मकादीश्वरं पञ्चभूतात्मकं लोकनाथेश्वरं परं ज्योतिश्वरं यादाद्रीश्वरं वेदप्राणेश्वरं श्री श्रीलक्ष्मीनाथेश्वरो अष्टदिक्शोभितं हरिवर्गनाशकं पद्मनाभेश्वरं सर्वार्थसाधकं श्रीनारसिंहं सितजनारक्षकम् अनाधिं ममेयं अजेयम् अचिन्त्यम् अमोघम् अपूर्वम् अनन्तम् अखण्डम् अनाधिं ममेयम् अजेयम् अचिन्त्यम् अमोघम् अपूर्वम् अनन्तम् अखण्डम् भक्तजनहृदया संसेव्यमानम् सिंहाय च कवचाय च सौम्याय च उग्राय च तीक्ष्णाय च क्षेमाय च योगाय च नव्याय च चन्द्राय च दिव्याय च सेव्याय च श्रीशाय च चक्राय च रक्षाय च सूर्याय च ॐ श्री यादगिरिपुरवास दिव्यस्वरूपम्